अभोत् देवः समिता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः विजो रत्ना भजति मानवेभ्यः श्रेष्ठम् नो अत्र द्रविणम् यथा दधत देवेभ्यो हि प्रथमम् यज्ञजेभ्यो मृतत्वम् सुमसि भागमुत्तमम् आदिद्दामानम् सवितर्व्योर्नुषे नो चेनाजीवितामानुषेभ्यः अचित्ते यच्च क्रमादैव्ये जने दीनैर्दक्षैः प्रभो ते पौरुषत्वता देवेषु च सवितर्मानुषेषु च त्वन्नो अत्र सुवतादनागसः न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वम् भुवनम् धारयिष्यति यत्पृथिव्यापरिमन्नास्वम् गुरिर्वर्ष्मन् दिवः सुवति सत्यमस्य तत् इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयाङ्केभ्यः सुवसि पस्त्यावतः यथा यथा पतयन्तो विजेमिर एवैव तस्थः सवितः समायते ये ते त्रिरहन् सवितः समासो दिवे दिवेऽसौ भगवा सुवन्ति इन्द्रोद्यावा पृथिवे सिन्धुरद्भिरादित्यैर्नो अदितिः शर्मजं सदा